नमस्कारः सर्वेषां पुनः स्वागतं नूतनन्यायवर्गे. तर्हि गतसप्ताहे नमस्कारः भगिनि, स्वागतम्. अस्तु, तर्हि गतवर्गे अस्माभिः समवायः इति विषयः चर्चितः, तत्र क्षम्यतां सामान्यम् इति विषयः चर्चितः. तत्र परम् अपरं च द्विविधं सामान्यम् इति दृष्ट्वा तत्र द्रव्यत्वादीनां परत्वापरत्वम् इत्यस्य विषये अपि किञ्चन अवलोकनं जातम् अस्ति. अपि च एकः नूतनविषयः आगतः, नित्यद्रव्यवृत्तयो विशेषाः तु अनन्ताः इति. तस्मिन् विषये इतोपि किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरेण. तर्हि सः वदति, आण्ड्रे महोदय तस्य विषये किञ्चित् वदति वा?
कस्मिन् विषये? सामान्य इति विषये
परापरं
विशेषः. इदानीं कुत्र पर्यन्तम् अन्तिमे वर्गे गतम् इति न जाने भोः, यतोहि अत्र
नास्ति चिन्ता नास्ति महोदय. विशेषः इत्यस्य विषये किं जानाति, यत्किमपि वदतु, किमर्थं सः आगतः इत्यादिकं.
भवतु, यथा अस्माभिः सामान्यम् इति एकः पदार्थः दृष्टः, सः तु यः पदार्थः सः किं सदृशेषु तथा उक्तं सदृशेषु सदृशेषु द्रव्येषु सदृशेषु पदार्थेषु यत् किमपि सामान्यं वर्तते तस् अनेन पदेन एव ज्ञायते सामान्यम् इति अथवा जातिः. तथा एव यः तत् सामान्यम् एव अनेकेषु, परन्तु तत् विपरीतम् इति तथा एव चिन्तयामः. तद्विपरीतं यः पदार्थः वर्तते, यः केवलं प्रत्येकं वस्तुनि एव यत् यः वर्तते, यत् एकं यत् अणुः यत् अन्यूनं तथा दृष्टान्तः क्रियते. यदि किमपि करपत्रं वा अन्यत् वस्तु वा यत् अत्र विभाज्य तत्र यावत् गच्छामः तावत् विभागः तदनन्तरं कर्तुं न शक्नुमः. एतत् यत् अतिन्यूनम् अणुः वा अथवा अतिन्यूनं किमपि वस्तु यत् वर्तते, एतत् वस्तु अन्येन वस्तुना केन बध्यते इति पृष्ट्वा तथा विशेषः इति कश्चन पदार्थः वर्तते, यत् प्रत्येकं वस्तुनि अथवा प्रत्येकम् अतिन्यूनवस्तुनि एतत् वस्तु अनेन वस्तुना विभाजते, सः विशेषः इति तथा वक्तुं शक्यते.
अस्तु महोदय, धन्यवादः. अस्तु, तर्हि विशेषः इति तादृशः पदार्थः यः परमाणुषु वर्तते. अस्तु, नित्यद्रव्यवृत्तयो विशेषाः इति उक्तवन्तः. यथा महोदयेन उक्तं, कस्यचिदपि वस्तुनः खण्डनं कृत्वा 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 अन्ततो गत्वा परमाणुस्तरे प्राप्नुमः. परमाणुः इति यः पदार्थः प्राप्यते, तस्य पुनः खण्डनम् अथवा विभजनम् अशक्यम् इति कृत्वा तस्मिन् अवयवाः न सन्ति. अवयवाः इत्युक्ते पार्ट्स्, परमाणुषु पार्ट्स् न सन्ति. तर्हि अवयवाः न सन्ति चेत् परमाणुषु भेदज्ञापनं कथं भवेत् इति प्रश्ने कृते तत्र नूतनतया विशेषः इति एकः अपरः पदार्थः स्वीकृतः. विशेषः इति परमाणुषु विद्यते, अपि च परमाणुम् एकं परमाणुम् अपरस्मात् पृथक् करोति, भेदयति. तदर्थमेव कणादमहर्षिणा अथवा वैशेषिकशास्त्रं यः प्रणीतवान् तेन विशेषः इति पदार्थः स्वीकृतः आसीत्. अस्तु, तर्हि विशेषः इत्यावत्पर्यन्तम् अस्माभिः प्राप्तम्. अधुना वयं चतुर्दशे पृष्ठे स्मः, पेज् 14 इति. सर्वे कृपया पश्यन्तु तत्र. विशेषः इत्यस्य परिचयः प्राप्तः. तदनन्तरम् इतोपि किञ्चित् अवशिष्यते विशेषः इत्यस्य विषये, तद् पठेम. एना भगिनी पठति वा? एना भगिनी, अस्तु, जगन्नाथमहोदय,
म्यूट् कृतवती.
अस्तु जगन्नाथमहोदय, अग्रे तर्हि अस्तु पठतु भगिनी, चतुर्दशे पुटे स्मः विशेषः.
चतुर्दशपुटे
यथा परमाणोः,
यथा परमाणोः, ओके, यथा परमाणोः अवयवो नास्ति तथैव आकाश आदि द्रव्याणाम् अपि अवयवाः न सन्ति. अतः परस्पराभेदज्ञानाय आकाशादवपि विशेष अपेक्षा वर्तते. परमाणुः नित्यः, आकाशादयश्च नित्यः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति इति एतत् सर्वम्
अभिसन्धायोक्तं
नित्यद्रव्यवृत्तयोः वृत्तयः विशेषः. अनन्तः परमाणवः नित्यद्रव्याणि च, तवन्तः विशेषः इति तेषाम् अनन्त्याम् अपि सिद्ध्यति.
तावद् भगिनि, वाक्यशः पठित्वा, वाक्यशः इत्युक्ते सेण्टेन्स् बै सेण्टेन्स् पठित्वा किम् अवगतमिति किञ्चित् वदतु.
ओके, यथा परमाणुः अवयवः नास्ति तथैव आकाशादि द्रव्याणाम् अपि अवयवः न सन्ति. अवयवः भेदः, परमाणोः भेदः नास्ति चेत् तदापि
अवयवः इत्युक्ते किं भगिनि?
भेदः अंशः.
हा, बहु समीचीनम्. अंशः इत्युक्ते पार्ट्स् इति. परमाणोः अवयवाः सन्ति वा?
न
सन्ति खलु. परमाणुः इति तादृशवस्तु यस्य पुनः खण्डनं विभजनं न क्रियते. तर्हि यथा परमाणु, हा, अतीव लघुः. यथा परमाणोः अवयवः नास्ति तद्वत् आकाशादि नित्यद्रव्याणामपि अवयवाः न सन्ति इति उक्तम्. आकाशादि नित्यद्रव्याणि इति उक्तं, ते च के?
मनः, आत्मा, आकाश, स्मराणि.
आकाश प्रथमे पुटे एव अस्ति. आकाशः, कालः, दिगात्मा, मनः इति आकाशादि नित्यद्रव्याणि, तानि तेषाम् अवयवाः सन्ति वा?
न
सन्ति. यथा परमाणु
अवयवः सन्ति, कालस्य अवयवाः सन्ति, श्वः, परश्वः.
महोदय, एकनिमिष, न सन्ति. परश्वः, श्वः इति यद् किमपि तादृशव्यवहारः भवति तान् वयं मापिकारूपेण, कालस्य मापनं कर्तुं व्यवहारयोग्यः भवतु कालः इति धिया तान् वयं कुर्मः. तादृशविभागान् वयं कुर्मः. आकाशः वस्तुतः, क्षम्यतां, कालः अपि, तस्य अवयवाः न सन्ति इति. एकः एव, यथा आकाशः.
भूतकाल, वर्तमानकाल, भविष्यत्काल भागं नास्ति वा?
नास्ति. व्यवहारार्थं, व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. अस्माकं व्यवहारार्थम् इत्युक्ते अस्माकं मनसि यद् ज्ञानं जायते तद् अपरेषां कृते प्रकटीकर्तुं वयं तत् सर्वम् अस्माकं भाषासु आनयामः, सूर्योदयः, सूर्यास्तः इत्यादिकं, परन्तु कालः इति एकः एव, यथा आकाशः, दिग् अपि च आत्मा, तद्वदेव. वस्तुतः तस्य अवयवः नास्ति इति, अवयवाः न सन्ति कालस्य.
दिशापि अनन्ताः, अनन्ता दिशा, अनन्ताः दिशाः
सन्ति. न, तथा नास्ति. दिक् अपि एकः एव, व्यवहारयोग्यः, व्यवहारयोग्या भवतु दिक् इति कृत्वा तस्मिन् उपाधीनां स्थापनं वयं कुर्मः. यदि दिक् इति पश्यामः तदा इतोपि स्पष्टं भवति. अस्तु, मनसि केवलम् एवं स्थापयतु यत् आकाशादिद्रव्याणाम् अवयवाः न सन्ति. आकाशादिद्रव्याणि इत्युक्ते आकाशः, कालः, दिग्, आत्मा, मनः इति.
भगिनी, एकः प्रश्नः. दिग् इति पदार्थः आकाशस्य एव एकं भागम्
इति? न, दिग् इति नूतनं द्रव्यमेव. दिशः विषये यदा चर्चा भवति तदा इतोपि स्पष्टीक्रियते. अधुना केवलम् आकाशादिद्रव्याणाम् अवयवाः न सन्ति, यथा परमाणुः तथा इति मनसि भवेत्. अस्तु, अग्रे सरेम. अस्तु, आना भगिनी, तर्हि अग्रे पठतु. अतः
ओके, अतः परस्पराभेदज्ञानय आकाशादवति विशेष अपेक्षा वर्तते.
तस्य अर्थः कः?
परस्परं भेदज्ञान आकाशादवति, आकाशाद् अवति,
आकाशादौ अपि,
आकाशादौ अपि विशेष अपेक्षा वर्तते.
अस्माकं विषयः अधुना विशेषः इति, खलु, विशेषः इति कश्चन पदार्थः, सः कुत्र कुत्र वर्तते इति. आकाशादौ अपि वर्तते विशेषः. आकाशादिः इति इकारान्तपदं, सप्तमीविभक्त्याम् आकाशादौ, आकाशादौ अपि विशेषः इति पदार्थः वर्तते. किमर्थं वर्तते?
आकाशादौ नित्यद्रव्येषु विशेष वर्तते.
हा, किमर्थं वर्तते इति चेत् परस्परभेदज्ञापनाय. वयं दृष्टवन्तः परमाणौ यदा विशेषः भवति तदा अयं परमाणुः अपरस्मात् भिन्नः इति ज्ञापयति. तादृश फङ्क्षनालिटि अस्ति विशेषः इति पदार्थस्य. अस्तु, तदर्थम् आकाशादौ अपि विशेषः इति वर्तते. अस्तु, अग्रे भगिनि.
परमाणुः नित्यः, आकाशाद्याश्च नित्यः इति सर्वेषु नित्येषु द्रव्येषु विशेषः अस्ति इति एतत् सर्वम् अभिसन्धायोक्तं नित्यद्रव्यवृत्तयोः विशेषः.
परमाणुः यथा नित्यः तद्वत्
परमाणुः आकाशादि नित्यद्रव्यः
इत्युक्ते परमाणुः नित्यः, तत्तु अवगच्छति खलु, यस्य नाशः न भवति सः नित्यः परमाणुः.
अस्तु,
तद्वत् आकाशादयः च नित्याः. तदर्थम् उक्तं, किमुक्तं?
सर्वेषु नित्येषु द्रव्येषु विशेषः सिद्ध्यति. सर्वेषु द्रव्येषु नित्यद्रव्येषु विशेषः अस्ति.
सत्यं, सर्वेषु नित्यद्रव्येषु परमाणुः अपि च आकाशादि नित्यद्रव्येषु विशेषः अस्ति इति कृत्वा आरम्भे उक्तं नित्यद्रव्यवृत्तयो विशेषाः इति. अस्तु, अन्तिमवाक्यं पठतु.
अनन्तः परमाणवः नित्यद्रव्याणि च.
अनन्ताः परमाणवः इत्युक्ते, अनन्तः इत्युक्ते इन्फैनैट् इति. तावन्तः परमाणवः सन्ति, अनन्ताः परमाणवः, तेषु सर्वेषु विशेषः वर्तते. अपि च नित्यद्रव्याणि इति जानीमः, आकाशादि नित्यद्रव्याणि, तत्र सर्वत्र विशेषः वर्तते इति कृत्वा तावन्तः विशेषः, यावन्तः परमाणवः नित्यद्रव्याणि तावन्तः विशेषाः वर्तन्ते. अतः विशेषाणां सङ्ख्या का?
सङ्ख्यां नास्ति
सङ्ख्या, यथा यथा नवद्रव्याणि, चतुर्विंशतिगुणाः,
पञ्च.
वदतु विजया भगिनि.
अनन्त्याः,
अनन्ताः, हा अनन्ताः, इन्फैनैट् इति, यत् परमाणवः अनन्ताः खलु, तत्र सर्वत्र विशेषः वर्तते एव. अस्तु अस्तु इति कृत्वा विशेषः इति पदार्थस्य निरूपणं सञ्जातम्. अपि च अत्र
महोदय एकः प्रश्नः अस्ति, एकस्मिन् परमाणु अन्यपरमाणु अपेक्षया भिन्नः अस्ति, अतः तत्र विशेषः अस्ति इति वयं जानीमः, परन्तु आकाशः सर्वत्र एकः अस्ति न, अस्ति वा?
अतः
किमर्थं तत्र विशेषः पदार्थः अस्ति?
समीचीनः प्रश्नः, शनिवासरे अपि आगतः आसीत्. तर्हि आकाशः एकः नित्यः इति सर्वं सत्यमेव, परन्तु अत्र आकाशः अपरस्मात् भिन्नः, अपरस्मात् नित्यद्रव्यात् भिन्नः इति कथञ्चित् वक्तव्यं भवति खलु. इत्युक्ते पश्यतु, अत्र आकाशे रूपं नास्ति किल, कालः अथवा कालः दिग् इति चिन्तयतु, तत्र किमपि नास्ति येन वयं पृथक्तया वक्तुं शक्नुमः अयं कालः अयं दिग् इति. तदर्थं सिद्धान्तरीत्या तत्र विशेषः भवतु येन एकं नित्यद्रव्यम् अपरस्मात् भिन्नम् इति साधयितुं शक्नुमः इति तेषाम् आशयः.
अस्तु धन्यवादः.
अस्तु, मनसि निधाय सर्वम् एकत्रीकृत्वा उक्तम् इति, इमानि विचाराणि यानि यानि सन्ति तत्सर्वम् एकत्रीकृत्य एवम् उक्तं नित्यद्रव्यवृत्तयो विशेषाः इति. अस्तु, कोऽपि प्रश्नः?
मम प्रश्नः अस्ति, नित्यद्रव्याणि कालदिगात्म अव्ययः अवयवः नास्ति, किन्तु you cannot count them. किमर्थम् अनन्तः?
You cannot count them इत्युक्ते आकाशः एकः एव खलु भगिनि?
आम्.
कालः अपि तथा.
आम्.
अपि च आत्मा इति यदा विषयः आगच्छति तदा पश्यामः जीवात्मा परमात्मा इति. जीवात्मनः अपि अनन्ताः एव सन्ति, मनांसि अपि अनन्तानि एव सन्ति. यद्यपि श्रेणीदृष्ट्या पञ्च एव इति वदामः, तत्र अनन्ताः अपि सन्ति, आत्मा मनः इत्येषु अपि अनन्त्यम् अस्ति.
भगिनि एकः प्रश्नः,
एकनिमिषः भगिनि, अन भगिनि बुद्धं वा?
यदा गणनां कर्तुं न शक्नोमि तदा अनन्तः,
अनन्तः हा इन्फैनैट् इति अनन्तः.
किमर्थम् अनन्तः? एकम् एकम् एकं वदामि न, एकः आत्मः एकः कालः.
न न न, कालः आकाशः तथा स्यात्, किन्तु नित्यद्रव्याणि इति अपराणि अपि सन्ति. आत्मा इति चिन्तयतु, जीवात्मा परमात्मा इति भेदः अस्ति, तत्र जीवात्मनः अपि अनन्ताः इति स्वीक्रियन्ते, अग्रे गत्वा पश्यामः. अपि च परमाणुः अपि नित्यद्रव्यम् अस्तु, परमाणवः अनन्ताः, परमाणुः नित्यद्रव्यं भूत्वा तस्मिन् आनन्त्यम् अपि अस्ति, इन्फिनिटि इति, तदर्थं विशेषाः अनन्ताः इति. बुद्धम्? विजया भगिनी, विजया भगिनी प्रश्नः आसीत् वा?
सर्वेषु नित्येषु द्रव्येषु विशेषः इत्युक्ते तत्र सस्य भेदं सस्य भेदम् अस्ति खलु, एतदेव विशेषः भवति तत्र.
हा विशेष तस्य विषये इतोपि वदामि अधुना, एकनिमिषः. सरला भगिनी
भगिनी, स्पष्टीकरणार्थम् अहं पृच्छामि, परमाणवः केवलम् अनित्यद्रव्येषु भवति, किन्तु नित्यद्रव्येषु परमाणवः नास्ति कारणात् एक तेषाम् अवयवः नास्ति
सत्यं
न सन्ति अस्तु
आकाशस्य अवयवः इति चेत् तस्य परमाणुः तत्र न
विशेषस्य विशेष अधिकरणं केवलं द्रव्यम् अस्ति यथा अष्टमे पुटे वयं कोष्टके दृष्टामः विशेष भवति पश्यामः विशेषस्य अधिकरणं केवलं द्रव्यम् अस्ति नित्यं परमाणुः अस्ति
सत्यं नित्यं द्रव्यमेव विशेषस्य अधिकरणं भवति इति अस्तु अस्तु तर्हि इतः अग्रे किञ्चित् वक्तव्यमस्ति विशेषः इति कश्चन पदार्थः येन भेदज्ञापनं नमस्कारः महोदय भेदज्ञापनं क्रियते इति अस्माभिः दृष्टं किन्तु एकः विशेषः अपरस्मात् विशेषात् भिन्नः इति कथं वक्तुं शक्यते इति प्रश्नः उदेति खलु परमाणु ए इति परमाणुः बि इति परमाणुः इति चिन्तयतु ए इति परमाणौ एकः विशेषः बि इति परमाणौ अपरः विशेषः इति कृत्वा द्वयोः परमाणोः भेदः स्थापितः परन्तु एकः विशेषः अपरस्मात् कथं भिन्नः इति पुनः प्रश्नः उदेति अत्र उच्यन्ते नैयायिकाः वदन्ति यद् विशेषः इति यः पदार्थः अस्ति तस्मिन् एकः धर्मः विद्यते स्वत्तो व्यावर्तकत्वम् इति धर्मः स्वत्तो व्यावर्तकत्वम् इत्युक्ते स्वस्य भेदं स्वयं स्थापयति पुनः वदामि स्वत्तो व्यावर्तकत्वम् इति कश्चन धर्मः वर्तते येन विशेषः स्वस्य भेदं स्वयं साधयति पुनः विशेषाणां मध्ये भेदस्थापनार्थम् अपरः नूतनपदार्थः न आवश्यकः एवमेव विशेषस्यापि खण्डनं कृत्वा कृत्वा तस्मिन्नपि नूतनपदार्थं स्थापयित्वा अग्रे गच्छामश्चेत् तत्र दोषः आगच्छेत् अनवस्थादोषः इति कश्चन दोषः इति उच्यते नैयायिकैः तर्हि विशेषः इत्यस्मिन् स्तरे स्थगयित्वा ते वदन्ति यत् विशेषे स्वत्तो व्यावर्तकत्वम् इति कश्चन धर्मः अस्ति अस्तु तर्हि विशेषः इति विषयः समाप्तः अधुना अत्र कोऽपि प्रश्नः वा कस्यचित्
एतद् कुत्र लिखितमस्ति एषः गुणः
नास्ति महोदय तदर्थमेव मया उक्तं द्विवारं नास्ति इच्छन्ति चेत् पुनः लिखन्तु पुस्तके कुत्रचित्
अस्तु
अस्तु विशेषः
स्वयं कथं स्थापयति स्वयम्
इति सिद्धान्तः इति सिद्धान्तरीत्या तथा स्वीकृतः महोदय वस्तुतः भवान् पृष्टवान् खलु कथम् इति हा ततः अग्रे अपि गत्वा अस्तु विशेषः कथं स्थापयति पुनः विशेषे अपरः कोऽपि पदार्थः भवतु इति कृत्वा विशेषस्यापि खण्डनं करोति चेत् तत्र यथा मया उक्तम् अनवस्थादोषः इति दोषः आगच्छति कियत्पर्यन्तं गन्तुं शक्नुमः तथा इति कृत्वा विशेषे कश्चन धर्मः अस्ति तादृशः इति तावत्पर्यन्तं नैयायिकैः स्वीक्रियते तावदेव वक्तुं शक्नुमः अस्तु
अस्तु अस्तु
अस्तु सम्यक् तर्हि अग्रे जगन्नाथमहोदय
समवायसाधनप्रकारः द्रव्यादि त्रिकं निरूप्य सामान्यविशेषौ निरूपितौ ततः समवायं निरूपयति त्रिकम् इत्युक्ते त्रिविधं वा
द्रव्यादित्रिकं किमासीत् आरम्भे कस्य कस्य निरूपणं कृतवन्तः पुस्तके
आरम्भे
द्रव्यगुणकर्म
अस्तु द्रव्यादित्रिकम् ओ द्रव्यगुणकर्म ये त्रयः मिलित्वा अस्तु निरूप्य सामान्यविशेषौ निरूपितौ तस्मात् परं सामान्यं विशेषः अपि सामान्यविशेषं यत् पदार्थद्वयं यदस्ति तस्य निरूपणम् अभवत्. ततः समवायं निरूपयति. एतस्मात् परं समवायं समवायस्य निरूपणं भवति. समवायस्त्वेक एव इति. समवायः तु एकम् एकमेव.
समीचीनम्.
एकः एव इति.
तत्र विसर्गसन्धिः अपि च यण् सन्धिः अस्ति. समवायः तु एकः एव इति वाक्यम् अस्तु. अग्रे
इत्थं हि समवायसाधनम् आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः. ततः पुरुषस्य नमस्कारेच्छा भवति. ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवञ्च पूर्वमुक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. अस्तु. समवायस्य एकत्वं निरूपणार्थं यद् एषः भवति वा. इत्थं हि समवायसाधनम् आहुः. आहुः इति तस्य निरूपणं कृपया करोतु.
वदन्ति इति वा महोदय, तावदेव. अग्रे गच्छतु. समवायसाधनम्
अस्तु. अस्तु अस्तु. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः. अस्तु. कस्यापि एकमनुष्यस्य हस्तौ तेषां यद् सामान्यरूपेण यत्र तिष्ठन्ति तत्रैव तस्य स्थितिः भवति. ततः पुरुषस्य नमस्कारेच्छा भवति. तस्मात् परम् एषः कस्यापि नमस्कारं मया करणीयम् इति सः इच्छति. ततः हस्तयोः क्रियायाः तयोः संयोगः उत्पद्यते. तस्माद् हस्तद्वयं उत्थाप्य सः हस्तौ एकस्मिन् स्थाने आनयति. एवञ्च पूर्ववित्तौ भिन्नस्थानस्थितौ हस्तौ युक्तौ भवति. यदा एकस्मिन् स्थाने ते आगच्छन्ति तत्रैव तेषां भिन्नस्थित हस्तौ तस्य संयोगं भवति इति संयोगशब्दस्य विवरणं निरूपणम्.
वयं दृष्टवन्तः पूर्वमेव संयोगः इति कश्चन गुणः चतुर्विंशतिगुणेषु खलु.
अस्तु.
रूपरसगन्धगन्धः इत्यादयः गुणाः तत्र. संयोगः इति कश्चन गुणः आसीत्. अपि च हस्तयोः क्रियया इत्युक्ते हस्तं उपरि नीत्वा नमस्कारं कुर्मः इति काचित् क्रिया जायते हस्ते. हस्तस्य क्रियया हस्तयोः क्रियया किं जायते हस्तयोः मध्ये?
संयोगं भवति. तस्य नमस्कारम् इति वयं वदामः व्यवहारे.
अस्तु. अन्तिमवाक्यं पठतु पुनः. एवञ्च
एवञ्च पूर्वविविक्तौ पूर्वे यद् स दृष्ट अस्माभिः दृष्टम् ओ यद् ओ भिन्नस्थाने यद् हस्तौ आसन् ते स्वयं एकं वामभागे अन्य दक्षिणभागे यद् सामान्यरूपेण भव तिष्ठन्ति ते तौ एकस्मिन् भिन्नस्थाने आगत्य तस्य एकस्मिन् स्थाने एव भवति तस्य एव संयोगम् इति.
संयोगः भिन्नस्थानस्थितौ एकत्र भिन्नस्थानस्थितौ हस्तौ विविक्तौ इत्युक्ते यथा भवता उक्तम् एकः हस्तः वामपार्श्वे अपरः दक्षिणपार्श्वे विविक्तौ इति तस्यां दशायां पृथक् पृथक् आस्तामिति तौ पुनः एकत्र यदा आगच्छतः तदा हस्तौ संयुक्तौ भवतः तयोः संयोगः इति व्यवहारः क्रियते. अस्तु, तर्हि प्रथमतया संयोगः इति कश्चन सम्बन्धः हस्तयोः मध्ये, तस्य विषये किमर्थम् उक्तवन्तः इति अग्रे गत्वा वयं द्रक्ष्यामः. पूर्वविविक्तयोः हस्तयोः मध्ये संयोगः भवति, किन्तु यदा नमस्काररेच्छा पूरिता भवति तदा पुनः हस्तौ स्वस्थाने गच्छतः इति, स्वस्थानं गच्छतः. अस्तु,
विविक्तौ इत्युक्ते किम् अत्र भगिनि? विविक्तौ,
विविक्तौ इत्युक्ते पृथक् पृथक् आस्तामिति, पृथक् इति. अस्तु अस्तु, अग्रे गच्छेम. श्रीधरमहोदय अग्रे पठति वा?
पठामि. एकं, परन्तु घटोत्पत्तिर्यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः. परन्तु घटु कपालमिते शिरसे स्थिता अस्ति वा?
हा, कपालः इति अवयवः, शरीर अवयवः अस्ति खलु. कपालः इत्युक्ते फोर् हेड् इति,
फोर् कपाल अस्ति
सत्यं किल? फोर् हेड् खलु. हा, फोर् हेड् हा, तद् अत्र तद् नास्ति महोदय. ये केऽपि पाटरी इति जानन्ति ते जानीयुः कपालः इति घटस्य अर्धभागः. अत्र तदर्थं फुट् नोट् मध्ये दत्तमस्ति, पश्यतु. कपालः घटस्य अवयवः, तस्य अन्येन कपालेन संयोगे सति घटः उत्पद्यते. इत्युक्ते कपालः इति घटस्य एकः भागः. कुलालः, कुलालः इति अपि शब्दः वारं वारम् आगच्छति अस्माकं पुस्तके. तर्हि कुलालः इत्युक्ते कुम्भकारः, पाटर् इति. यदा सः घटं निर्माति तर्हि प्रथमतया एकं कपालं निर्माति, अपरं कपालं निर्माति, तद् मिलित्वा कपालद्वयं मिलित्वा घटः इति भवति.
बुद्धं? परन्तु घटोत्पत्ति अत्र भवति तत्र कपालद्वयं संयोगानन्तरम् एवं कदाचित् भवेत्. सो घटः भवति कपालद्वयं संयोगेन भवति. कपालद्वयं कुलालः कपालद्वयं स्वीकरोति, घटं घटनिर्माणं करोति. यद् घटः अन्यत्र स्थितः कपालः अन्यत्र ततः कपालद्वयसुखानन्दम् सम्बन्धः अस्ति वा? कपाले कपाल घटे मध्ये कः सम्बन्धः इति प्रश्नः.
वस्तुतः एकनिमिषः, प्रश्नः कः? घटोत्पत्तिः यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् कपालद्वयसंयोगानन्तरमेव घटः भवति इति प्रथमवार्ता. तद् जाते एवं कदाचित् भवेत् वा यद् घटः अन्यत्र स्थितः कपालः अन्यत्र स्थितः. प्रश्नः अवगतः वा?
अन्यत्र स्थातुं भवति, कपालः पृथक् करोति न, कपालः प्रथमं करोति, कपालद्वयं युज्य उपयुज्य सः घटनिर्माणं करोति कुलालः.
हा, इति सत्यं.
कपालं अन्यत्र भवति एव प्रथमे.
हा, परन्तु अत्र एकः कश्चन निर्बन्धः अस्ति. प्रथमं तु अपरत्र आसीत् इति समीचीना वार्ता, परन्तु अत्र निर्बन्धः कः इति चेत् कपालद्वयसंयोगानन्तरं, कपालद्वयसंयोगानन्तरं यदा एकवारं घटः इति जायते तदा कपालः अन्यत्र घटः अन्यत्र इति स्थितिः कदाचित् भवति वा?
न भवति.
वदतु महोदय.
ब्रेक् कर्तुं शक्नोति, घटस्य नाशः भवति तस्मात् कपालं पुनः आगच्छति वा?
हा हा, इत्येव वार्ता, समीचीनं. कपालः अन्यत्र भवेत् अथवा घटः अन्यत्र भवेत् इति स्थितिः न भवति एव. यदि तथा स्यात् तर्हि घटः एव भग्नः भवेत् खलु?
आम् आम्, घटस्य नाशः भवति, घटनाशं.
अतः एव अन्ततो गत्वा उक्तं ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः कः इति प्रश्नः. पश्यतु, जगन्नाथमहोदय यद् उक्तवान्, पूर्वं पृथक् पृथक् आस्तां द्वौ हस्तौ, एकत्र प्राप्य संयोगः इति सम्बन्धः जातः, पुनः भिन्नभिन्नस्थानौ स्थाने गतवन्तौ हस्तौ, खलु?
तत् सम्बन्धः निरन्तरं नास्ति, यत् सम्बन्धः निरन्तरः.
समीचीनं महोदय, सम्यक्तया उक्तं भवता. अस्य विषये इतोपि किञ्चित् चर्चयामः. अस्तु, तर्हि घटः कपालः अनयोः कश्चन भिन्नः सम्बन्धः भवेत्, न तु संयोगः इति. स्पष्टं वा?
स्पष्टं
स्पष्टम्. अस्तु, इति प्रथमः बिन्दुः, इत्युक्ते प्रथमस्थलं यत्र तादृशसम्बन्धः अपेक्षितः. द्वितीयस्थलं किम् इति पश्येम. तत्र
क्षम्यतां, घटः किम् इत्युक्ते?
घटः पाट् भगिनि, पाट्.
सोरि, पाट्, ओके.
एण्ड् कपालः इस् द अवयव आफ् अ पाट्.
ओके,
सम्यक्. अग्रे का पठति? सरला भगिनी अग्रे पठति वा द्वितीयबिन्दुम्?
आं भगिनि, घटस्य तद् रूपस्यापि च एवमेव चिन्तनीयं. किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति सम्भाव्यते? द्वितीयबिन्दुः अस्ति, यदि घटं पश्यामः तत्र रूपम् अस्ति, रूप घटस्य विहाय न भवितुं शक्नोति. तस्य रूप भवति घटस्य गुण, सुगुण द्रव्य घट भवति द्रव्यं, गुणद्रव्ये विना न भवितुं शक्नोति. अत्र प्रश्न वदति, रूपं घटेन सह एव भवति, तस्य विहाय तस्य सम्भावना अस्ति वा? एतत् प्रश्न आयाति.
भवत्याः चिन्तनं किं, तादृशी स्थितिः भवति वा, घटः अपि च घटस्य रूपं पृथक्तया भवेताम् इति?
पृथक्तया पृथक्तया न कर्तुं शक्नुमः. यदि घट अस्ति, रूपमस्ति, रूपमस्ति तस्य रूपघटं विहाय न भवितुं शक्नोति.
समीचीनं भगिनि, तर्हि रूपम् इति गुणः कस्मिंश्चित् द्रव्ये आश्रितः आश्रितं भवेत् एव. अस्तु, तत्रापि किं पृथक्करणं न शक्यम् इति?
पृथक्करणं न शक्यम्.
एकः प्रश्नः,
वदतु महोदय.
रूपम् इति घटत्वस्य एकः अंशः वा?
न, घटत्वम् इति कीदृशपदार्थः?
गुणम्
न, चिन्तयतु, अपरं सामान्यं परं सामान्यम् इति सर्वं वयं पठितवन्तः, तर्हि घटत्वम् इति कीदृशपदार्थः?
धर्मः अस्ति.
धर्मः सामान्यं खलु, द्रव्यत्वं समानानां धर्मः सामान्यं, घटत्वम् इति सामान्यम् अथवा जातिः, परन्तु रूपम् इति कीदृशपदार्थः?
गुणः वा?
गुणः,
भिन्ना वर्णाः सन्ति, यथा रूपस्य श्वेतवर्णः, नीलवर्णः, कृष्णवर्णः, ते गुणाः भवन्ति.
कृष्णवर्णीयः घटः इति चेत् कृष्णवर्णः इति घटस्य रूपं, तथा अस्ति.
किन्तु यद् बालः घटः इति अवगच्छति, तत्र रूपम् अति मुख्य अंशः इति मन्ये.
इत्युक्ते भवतः मनसि किमस्ति इति अहं अवगन्तुं शक्नोमि. घटं दृष्ट्वा बालः घटः इति कथं वदति, घटस्य रूपं दृष्ट्वा इति, खलु भवतः प्रश्नः? अत्र आकारं पश्यति, घटस्य आकारः इति अस्ति किल, आकारः कथञ्चित् जानाति, आकारं दृष्ट्वा घटः पटात् भिन्नः इति जानाति. अस्तु, तर्हि तादृशरूपगुणः अस्ति घटे इति सत्यं, परन्तु एकं घटं दृष्ट्वा अपरं घटमपि यदा सः अभिजानाति तदा केन आधारेण एकवारं कृष्णवर्णीयघटं पश्यति अपरवारं श्वेतवर्णीयघटं पश्यति इति चिन्तयतु. रूपं तु न समानं खलु, परन्तु कथञ्चित् जानाति. कथमिति चेत् तस्य मनसि घटत्वजातिः अनुक्त्वा एव घटत्वम् इति जातिः अथवा सामान्यं तस्य मनसि भवेत्. अत एव घटत्वम् इति एकः भिन्नः पदार्थः स्वीकृतः, रूपम् इति गुणः घटे अस्ति इति स्वीकृतम् अस्ति तत्र.
उदाहरणं रूपं द्वे समानपदम् एव तत्र
नास्ति
आकारं रूपम् इत्युक्ते समानपदमेव
न अत्र न्याय आकारः इति यद् मया उक्तं तद् नास्ति. न्यायशास्त्रे रूपम् इत्युक्ते विशेषतया तस्य वर्णः इति चिन्तयतु. आकारः तदेव चिन्तनीयमस्ति. अस्तु अग्रे गच्छेम वा? प्रश्नः अवगतः स्यात्, घटः अपि च घटस्य रूपं पृथक्तया स्थातुं शक्नुवन्ति वा, शक्नुतः वा इति प्रश्नः. सरला भगिनी तदेव प्रतिपादितवती अत्र. घटं विहाय आश्रयं विना रूपं न स्थातुं शक्नोति, घटेन सह एव सम्बद्धं भवति इति द्वितीयः बिन्दुः. तर्हि प्रथमः आसीत् घटकपालयोः नित्यसम्बन्धः वर्तते, तद्वत् घटघटरूपयोः अपि नित्यसम्बन्धः वर्तते, न तु संयोगः. अस्तु इतः अग्रे किञ्चित् सरेम. ज्योति भगिनी तृतीयबिन्दुं पठति.
आम्, बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपाक्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते. अतः बिलस्य मुखे सर्पः अस्ति, सः सर्पः प्रसर्पति, तर्हि प्रसर्पणक्रिया भवति. तत् प्रसर्पणक्रिया यत्र बिलः अस्ति अपि च सर्पः अस्ति तत्र एव भवितुम् अर्हति, न तु अन्यत्र इति मन्ये.
हा हा, समीचीनं भगिनि, इति एव खलु वार्ता. तयोः पृथक्करणं शक्यं वा? प्रसर्पणक्रिया न शक्यमेव. बुद्धं तर्हि सर्वेषां मनसि स्पष्टता अस्ति वा? अस्तु हा, अस्तु भगिनि चतुर्थबिन्दुमपि पठतु तर्हि.
एकस्मिन् हृदे घटः पतितः, घटः हृदतलं गतः, हृदतलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्? एकस्मिन् हृदे वा तले घटः पतितः, कूपे वा तले वा
हृदः इत्युक्ते
प्रायः कूपः,
सरोवरः, तडागः, पाण्ड् इति चिन्तयतु तथा.
आम्, तर्हि तत्र घटः पतितः तत्तु हृदतलं गतः. घटे हृदतले गते घटत्वं पृथक्तया जलस्य उपरि दृश्यते वा न इति अर्थः. घटत्वमपि घटस्य सहितं हृदतलं गतः.
हा, बहु समीचीनं भगिनि, इति एव वार्ता. यत्र घटः तत्रैव घटत्वं. हृदतलम् इत्युक्ते
बाटम् आफ् द सरोवर.
तलम् इत्युक्ते तत्र पूर्णतया हृदे अन्ते घटः घटः. तर्हि घटत्वमपि कुत्र अस्ति?
तत्र एव अस्ति. यत्र घटः अस्ति तत्र एव घटत्वमपि भवितुमर्हति
इति एव वार्ता अस्ति.
आम्, घटः हृदतले घटत्वं जलोपरि न भवितुम् अर्हति.
तयोः अपि पार्थक्यम् अथवा पृथक्करणं न शक्यम् इति चतुर्षु स्थलेषु तथा अस्ति. हस्तौ विविक्तौ इति यद्वयं दृष्टवन्तः आरम्भे एव, तथा नास्ति खलु इति वार्ता. अस्तु इतः अग्रे सरेम. विजया भगिनी अग्रे पठति वा?
पठामि भगिनि. सर्वेषां प्रश्नानाम् एतदेव खलु सर्वेषां प्रश्नानां न इत्येव समाधानम् अतः घटस्य कपालं विहाय घटस्य कपालं अन्यत्र वा कुत्रापि न
भगिनि एकनिमिषं भगिनि चतुरः बिन्दूनपि पठतु तदनन्तरं वदतु अस्तु
एकस्मिन् हृदये घटः पतितः घटः हृदयकाले
बिन्दुः प्रथमबिन्दुं पठितवती खलु प्रथमबिन्दुं वन् इति पठितवती ततः अग्रे सर्वान् पठित्वा अनन्तरं वदतु किम् इति सर्वेषां प्रश्नानां
प्रथमतः वा
न भगिनि सर्वेषां प्रश्नानाम् इति
सर्वेषां प्रश्नानां न इत्येव समाधानम् अतः घटस्य कपालं विहाय प्रश्नानाम्
अग्रे गच्छतु रूपस्य घटं विहाय
रूपस्य घटं विहाय तृतीयबिन्दु प्रसर्पणस्य सर्पं विहाय चतुर्थबिन्दु घटत्वस्य घटं विहाय
अग्रे कदाचिदपि अदर्शनात्
कदाचिदपि अदर्शनात् न्यूनं तेषां सम्बन्धः न संयोगः कुतः पूर्वं प्राप्तयोः विदुक्तयोः या प्राप्तिः सा संयोग इति उच्यते
अधुना किञ्चित् विवरणम्
प्रथमबिन्दु तत्र घटः कुत्रापि अस्ति कपालः अपि कुत्रापि अस्ति एतत् पृथक् पृथक् अस्ति संयोग कपालं घटत्वम् एतत् संयोगनार्थम् एव एतत् स्थले तिष्ठति पृथक्त्वं अत्र अभावः एव तत्र घटस्य कपालस्य पृथक् एव संयोगनार्थम् एव
एकनिमिषम् अत्र घटस्य कपालं विहाय कदाचित् अदर्शनात् रूपस्य घटं विहाय घटस्य कपालं विहाय कुत्रापि दर्शनं भवति वा
न न न भवितुम् अर्हति
कपालः
चित्रं कर्तुं शक्नोति घटरूपं द्रष्टुं शक्नोति घटचित्रं करोतु घट सिल्वर् घट सिल्वर् शेप् करोतु
तत्र परन्तु चित्रस्य रूपमस्ति घटस्य नास्ति न पश्यतु न्यायशास्त्रे सर्वे पदार्थाः भिन्नाः प्रथमतया यद् चित्रमिति भवान् वदति तद् घटस्य साङ्केतिकं रूपमस्ति घटः नास्ति अस्तु घटस्य चित्रं निर्मीय तत्र अस्तु रक्तवर्णीयघटं तत्र चित्रे स्थापयतु तद् चित्रस्य विषयः इति घटः तत्र घटस्य रूपमस्ति रक्तवर्णः इति एव न तु घटस्य रूपं तत्सर्वं चित्रे अन्तर्भूतमस्ति घटस्य रूपं न इति एव वार्ता अस्तु विजया भगिनी अधुना घटस्य कपालं विहाय अदर्शनम् अस्तु घटस्य कपालं विहाय अदर्शनमेव इत्युक्ते घटः कपालात् पृथक् न भवति एकवारं घटः निर्मितः चेत् कपालेन सह एव भवति इति वार्ता अस्तु द्वितीयबिन्दुः
द्वितीयबिन्दुः रसर्पणस्य सर्पं विहाय
रूपस्य घटं विहाय
गुणं घटे अनन्तरं न पश्यामः एतत् सर्वदा मिलित्वा एव द्रष्टुं शक्नुमः अतः
घटः घटस्य रूपं घटे एव भवति न तु अन्यत्र इति वार्ता अस्तु अग्रे
घटस्य रूपं घटे एव वर्तते अन्यत् घटं रूपस्य व्योगः तत्र न आसीत्, एतत् सर्वे मिलित्वा एव पश्येत्।
अस्तु भगिनि, तृतीयबिन्दुं पठतु कृपया। प्रसर्पणस्य
प्रसर्पणस्य सर्पं विहाय, इत्युक्ते विलस्य मुखे सर्पः वर्तते, अनन्तरं प्रसर्पणस्य क्रिया तत्र अन्यत्र अस्ति, एतत् पृथक् पृथक् न कार्यं कर्तुं शक्नोति।
प्रसर्पणस्य सर्पं विहाय अदर्शनात्, पुनः घटत्वस्य घटं विहाय अदर्शनात्,
घटं विहाय आधार आदेयभावः तत्र भिन्नप्रकारः सन्ति, संयोगः घटत्वं घटं तत्र अस्ति चेत् घटत्वं ये घटत्वं एव तत्रैव अस्ति, अतः घटत्वं यदा घटं न संयोगः तत्र।
समीचीनं, तर्हि एतेषु चतुर्षु स्थलेषु पार्थक्यं न दृश्यते खलु, पार्थक्यस्य पार्थक्यम् अथवा पृथक्त्वस्य अदर्शनात् तेषां सम्बन्धः न संयोगः इति अग्रे उक्तं। तेषां सम्बन्धः न संयोगः कुतः कुतः इत्युक्ते किमर्थं किमर्थं किमर्थम् इति चेत् पूर्वम् अप्राप्तयोः, ये पूर्वम् अप्राप्तौ आस्ताम् इत्युक्ते प्राप्तं न आस्ताम् इति, तादृश प्राप्त पूर्वम् अप्राप्तयो पूर्वं पृथक् पृथक् पूर्वम् अप्राप्तयोः विविक्तयोः, विविक्तयोः इत्युक्ते पृथक् पृथक् यौ आस्तां पदार्थौ, तयोः एकत्र प्राप्तिः यदा भवति तदा एव संयोगः इति उच्यते। अस्तु, किन्तु घटः अपि च घटरूपं पृथक् पृथक् नास्तं, यत्र घटः तस्य रूपं तत्रैव। कपालः, यद्यपि कपालः इति पृथक् आसीत् घटस्य निर्माणानन्तरम्, अस्माकं विषयः अस्ति कपालद्वयसंयोगानन्तरं पुनः तयोः पार्थक्यं पृथक्त्वं न सम्भवति एव, तद्वत् सर्पः प्रसर्पणक्रिया, घटत्वं घटः, तयोः मध्ये न संयोगः इति वार्ता।
अत्रापि मम प्रश्नः अस्ति, खादनार्थं वा एतत् किमपि कार्यार्थं सर्पः तु बहिरागच्छति, तस्मिन् समयेपि बिलः वर्तते,
किन्तु महोदय न न अत्र वार्ता का इति चेत् प्रसर्पणक्रिया तदा अपि सर्पे अस्ति खलु, इत्येव वार्ता, यदि बिलस्य अन्तः गच्छतु वा बिलस्य बहिरागच्छतु वा सर्पः, प्रसर्पणक्रिया कुत्र वर्तते?
यदा अन्तः भवति वा,
सर्पे एव वर्तते खलु क्रिया, यदि कोऽपि क्रीडति, यदि कोऽपि क्रीडति, बालः क्रीडति चेत् तत्र क्रीडनक्रिया बाले वर्तते, बालः क्रीडति क्रीडनक्रिया मातरी वर्तते इति वा,
बाले वर्तते
इति एव वार्ता। अस्तु, तत्र पृथक्करणं न शक्यमेव, हस्तौ विविक्तौ आस्ताम् एकस्थाने आगतवन्तौ पुनः गतवन्तौ, तादृशी स्थितिः नास्ति। अस्तु, तर्हि
अन्य उदाहरणं, यदा युवती नृत्यति वयं तया नाम नर्तकी वदामः, सो नर्तकी नृत्यकार्यं तयो वयं पृथक् न कर्तुं शक्नुमः, क्रिया अस्ति
सत्यं, क्रिया तु नर्तक्यामेव स्यात्, नर्तनक्रिया तादृशी स्थितिः अस्ति एषु चतुर्षु स्थलेषु। अस्तु, इति भेदः अस्ति हस्तयोः संयोगः अपि च एषु चतुर्षु स्थलेषु, अयमेव भेदः, पृथक्करणम् इति न भवेदेव इति, बुद्धं वा? अस्तु, किञ्चित् अग्रे सरेम, तर्हि आण्ड्रे महोदय अग्रे पठति वा?
कदाचिदपि
तद् अभवत् महोदय, ततः अग्रे अतः
कदाचित् अदर्शन अत्र एव अभवत्,
तदभवत् तस्मात् अग्रे अतः संयोगं विहाय
अतः अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः, सः सम्बन्धः एव समवायः, अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयाम् एव समवायसम्बन्धः। तत्र आश्रयानम् अधेयानं च नानत्वेऽपि लाघवत् अयं समवाय एकः एव इति स्वीक्रियते। एवं दृष्टम् अस्माभिः यत्र लाघवेन तथा वक्तुं शक्यते, यथा द्वौ द्वे वस्तूनि संयुज्य यदा तयोर्पृक्तत्वं तदनन्तरं भवितुं अर्हति शक्यते, तथा संयोगः इति कश्चन गुणः स्तः वर्तते। इदानीं तु तत्र कपालघातयोः मध्ये यथा भेदः संयोगे सति यथा भेदः न वर्तते, घातं खण्डनात् विना यथा भेदः न सिद्ध्यते, तत्र समवायः इति कश्चन अन्यः विशिष्टः संयोगः सम्बन्धः एव नैयायिकैः स्वीक्रियते। सः समवायः न सर्वत्र, परन्तु केषुचित् विशिष्टेषु अथवा द्वयोः विशिष्टयोः पदार्थयोः सिद्ध्यति, यथा अवयविनोः नाम कपालघातयोः अथवा गुणगुणिनोः यथा कपालकृष्णरूपयोः क्रियाक्रियावतोः तथा सर्पप्रसर्पणयोः जातिव्यक्त्योः तथा घटघटत्वयोः विशेषनित्यद्रव्ययोः, तत् अस्माभिः अद्य एव दृष्टं, विशेषस्य नित्यद्रव्यस्य अपि समवायः सम्बन्धः स्वीक्रियते। तत्र आश्रयानम् अधीयानं च ओके, तथा विशेषे अस्माभिः उक्तं यतोहि परमाणवः अनन्ताः, अत एव अस्माभिः विशेषे अनन्त्यम् अपि स्वीकृतं। समवायि तु तद् न कृतं, यद्यापि समवायाः तत्र अनेके अनन्ताः अपि वक्तुं शक्नुमः, तथापि सिद्धान्तरीत्या समवायः एकः एव इति लाघवत् स्वीकृतम्।
हा हा, बहु समीचीनं महोदय, धन्यवादः। तर्हि बुद्धं वा सर्वेषां मनसि कः सिद्धान्तः इति एषु
कृपया एकवारं पुनः वदतु भगिनि।
अवश्यम् अवश्यं महोदय, कुर्मः चित्रसहितं किञ्चित् कुर्मः। समवायः इति एषु पञ्चषु स्थलेषु भवति, अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्तोः विशेषनित्यद्रव्ययोः एव समवायः। तत्र उदाहरणं स्वीकृत्य वयं पश्यामः, अस्तु। अपि च अन्तिमवाक्यम् आश्रयाणाम् आधेयानां नानत्वे सत्यपि लाघवात् समवायः एकः एव इत्यस्य विषये इतोपि किञ्चित् वदामि अतः अग्रे। अस्तु, तर्हि किञ्चित् अत्र तर्हि सरला भगिनी किञ्चित् साहाय्यं करोतु। अत्र चित्रे प्रथमचित्रे किम् अस्ति भगिनि?
प्रथमचित्रे अस्ति अधोभागे द्रव्यमस्ति, तत् द्रव्यम् उपरि अस्ति, इत्युक्ते द्रव्यस्य अवयवाः उपरि अस्ति, अवयवः अधोभागे अस्ति, तस्य अवयवनिष्ठः अवयविनः उपरि अस्ति, तथा शरीरम् अस्ति, शरीरस्य भिन्न अङ्गानि सन्ति, ते अङ्गः उपरि भवति, द्रव्यं द्रवीगुणः अस्ति, यथा वयं घटस्य घटे रूपम् अस्ति, घटनिष्ठगुण उपरि आगच्छति। द्रव्ये क्रिया अपि अस्ति, सर्प यदि वयम् अधो लिखामः उपरि सर्पणक्रिया आगच्छति। सामान्यं वर्ते द्रव्यं गुण कर्मणि, द्रव्ये गुण अथवा सामान्यं यथा वयं गौषु गोत्वम् अस्ति, द्रव्ये सामान्यम् अस्ति, सामान्यं भवति गोत्वं सामान्यम् अस्ति, तत्र गुणे वयं दृष्टवन्तः गुणे गुणत्वम् अस्ति, सो गुणत्वं भवति सामान्यं पृथक् पृथक् गुणेषु, सो अपि सामान्यं गुणे अस्ति, सो गुणनिष्ठ सामान्यं, तथैव कर्मनिष्ठ सामान्यं। क्रियावत् अस्ति कर्मणि, तस्य सामान्यम् अस्ति तत्रापि। नित्यद्रव्ये अपि विशेष तिष्ठति। सो अधिकरणानि अधोभागे अस्ति, तस्य आधार उपरि दत्तमस्ति।
उपरि दत्तमस्ति, समीचीनं समीचीनं भगिनि। अस्तु, पञ्चस्थलानि अत्र निर्दिष्टानि, तानि पञ्चस्थलानि कानि इति इतोपि किञ्चित् सूक्ष्मतया अत्र अधस्तनचित्रे प्रदर्शितं। भगिनि तर्हि पठतु, द्रव्ये द्रव्यमस्ति, तत्र किमस्ति?
कपाल अवयवाः, अवय घट अवयविनः, घट भवति अवयवी, तस्य अवयवः अस्ति कपालः, घट अवयविनः आश्रयः कपाल अवयवः। इदानीम् अधोशरमस्ति, वयं वदामः घट अवयविनः आश्रयः कपाल अवयवः।
अस्तु अस्तु, एकनिमिषः, सर्वैः बुद्धं वा भगिनी किम् उक्तवती इति? उपरितनचित्रे पञ्चस्थलानि निर्दिष्टानि, यत्र यत्र समवायः सिद्धं भवति, सिद्धः भवति, द्रव्ययोः मध्ये समवायः, अपि च द्रव्यगुणयोः मध्ये समवायः, द्रव्यक्रिययोः मध्ये समवायः, द्रव्यगुणकर्म अपि च सामान्यम् इत्येषां मध्ये समवायः, नित्यद्रव्यं विशेषः, तत्रापि समवायः। प्रथम तत्र अधोभागे प्रथमचित्रमस्ति घटाद्यवयविनः कपालाद्यवयवाः इति। तर्हि अधुना जगन्नाथमहोदय भवान् वदतु, घटस्य अवयवः कः?
घटः कपालः इति, कपालद्वयं।
हा, बहु समीचीनं, कपालद्वयं घटस्य अवयवः खलु। अपि च उपरि किं दत्तमस्ति तस्मिन् चित्रे प्रथम उदाहरणे?
द्रव्यं द्रव्यं,
हा, तर्हि ततः अधोभागे घटाद्यवयविनः इति दत्तं खलु।
कपालः अपि द्रव्यं, घटः अपि द्रव्यं।
हा, तर्हि अत्र प्रश्नः अस्ति, कीदृशं द्रव्यम् इति प्रश्नः मुख्यः, यतोहि हस्तः अपि द्रव्यं, द्वौ हस्तौ अपि द्रव्यं खलु, द्वौ तयोः मध्ये संयोगः आसीत्। अत्र तु समवायः इति चर्चयामः, किमर्थम्? अत्र विशिष्ट वैशिष्ट्यं किमस्ति?
कपालयोः मध्ये एव समवायः भवति, न तु घटे।
न, चिन्तयतु, द्वौ हस्तौ आस्तां, तयोः मध्ये संयोगः, द्रव्यद्रव्ययोः मध्ये संयोगः इति अभवत् खलु तत्र।
आम्,
परन्तु पुनः अत्र समवायः कुत्र कुत्र अस्ति इति प्रदर्शनार्थं द्रव्ये द्रव्यं यदा तिष्ठति तत्रापि समवायः इति उक्तम्। उपरि गच्छति चेत् शरः, तत्र निष्ठा इति स्थापयामः, अधो गच्छति चेत् आश्रयः इति स्थापयामः इति स्मरति वा? तर्हि प्रथमचित्रे घटादि अवयविनः, घटः इति अवयवी, अवयवी इत्युक्ते यस्य अवयवः अवयवाः सन्ति, यस्य अस्य अस्मिन् वा अवयवः, तादृशः अवयवी घटः अवयवी, तस्य अवयवाः के?
कपालौ
अवयवौ, समीचीनं। तर्हि अधोगामिनीशरे आश्रयः इति स्थापयामः खलु, तस्मिन् सन्दर्भे अधिकरणं किम् आधेयः कः?
अधिकरणं घटः आधेयः कपालौ,
विपरीततया उक्तम्। चिन्तयतु तत्र अधिकरणताश्रयः यज्ञदत्तः, क्षम्यताम्, अधिकरणताश्रयः आसनम् इत्यादिकम् आसीत्। आधाराधेयभावं यदा वयं पठितवन्तः तत्र वयं दृष्टवन्तः खलु, यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति, आसने अधिकरणता अस्ति। तद्वत् घटः कपाले अस्ति न्यायशास्त्रे तथा अस्तु, अवयवेषु अवयवाः अवयवेषु अवयविनः तिष्ठन्ति इति, कपालेषु घटः तिष्ठति। तर्हि कपालघटयोः मध्ये कीदृशसम्बन्धः?
कपालेषु
तत्तु अस्ति एव, किन्तु अत्र वयं किं चर्चयन्तः स्मः? घटकपालयोः
घट इति वदति वा
न महोदय, अत्र संयोगः वा, एकनिमिष, अत्र संयोगः वा समवायः वा? घटकपालयोः कीदृशसम्बन्धः? आण्ड्रे महोदय अधुनैव पठितवान्,
समवायः एव, समवायः घटकपालयोः मध्ये संयोगः न भवति।
नाम द्वे द्रव्ये तादृशे द्रव्ये भवेताम् यत्र एकं द्रव्यम् अवयवी स्यात् अपरं द्रव्यम् अवयवः स्यात्, तादृशस्थले समवायः, तदेव आण्ड्रे महोदय अधुना पठितवान्, सः सम्बन्धः एव समवायः, कुत्र वर्तते? अवयव अवयविनोः मध्ये। अवयव अवयविनोः समवायः इति प्रथमः प्रसङ्गः। पुनः अग्रिमचित्रं ज्योतिभगिनी निरूपयति वा द्रव्यं गुणः?
रूपादिगुणाः द्रव्यं गुणवत्,
रूपादिगुणाः कुत्र तिष्ठन्ति?
द्रव्ये एव तिष्ठन्ति।
हा, द्रव्यं कीदृशं स्यात् तर्हि?
ओ, द्रव्य गुणवत् द्रव्यं,
हा, बहु समीचीनं। हा, यथा मया उक्तम् ऊर्ध्वगामिनी शरे आश्रयः इति स्थापयामः खलु सर्वदा, तर्हि तत्र अधिकरणं किम् आधेयः कः?
द्रव्यम् इति अधिकरणं, रूपादिगुणाः आधेयाः,
आधेयाः, रूपादिगुणाः द्रव्यम् आश्रित्य तिष्ठन्ति, अपि च द्रव्यं कीदृशं भवेत्? गुणवत्, मतु
गुणवत्,
अस्मिन् अस्ति गुणः इति कृत्वा द्रव्यं गुणवत्। तयोः
गुणिनः सम्बन्धः अस्ति, द्रव्यं गुणिनः अस्ति, रूपादिगुणाः अस्ति,
रूपादि इति रूपम् इति गुणः, द्रव्यं गुणि
गुणि
गुणि अपि तत्र अस्मिन् गुणः अस्ति इत्यस्मिन् अर्थे इनि इति प्रत्ययः खलु,
अपि च गुणिनः गुणः एकत्रम् एव भवितुम् अर्हति, पृथक् भवितुं न अर्हति, अतः अत्रापि समवायसम्बन्धः अस्ति,
समवायसम्बन्धः इति द्वितीयमस्ति, समीचीनं। तर्हि अवयवावयविनोः गुणगुणिनोः इति आगतम्, अस्तु, अग्रे अपि करोतु भगिनि।
उत्क्षेपणादिक्रियाः क्रियावत् द्रव्यम्, तत्रापि क्रियावत् द्रव्यं तत् अधिकरणं, क्रिया तत्र तिष्ठति तत् आधेयः, तत् तयोः मध्ये क्रिया क्रियावत् फतोः मध्ये समवायः पुनश्च यतः उत्क्षेपणादिक्रिया वा किमपि क्रिया द्रव्यं विना न भवितुम् अर्हति. यत्र द्रव्यः अस्ति तत्र एव क्रिया भवितुम् अर्हति. इट्स् इन्हेरेण्ट् इन् द क्रिया, अतः तत्र समवायसम्बन्धः अस्ति.
हा, तर्हि द्रव्यं कीदृशं स्यात् तत्र?
तत्र क्रियावत् द्रव्यं स्यात्.
हा, क्रियावत् द्रव्यम् अधिकरणं भवति, तस्मिन् क्रिया इति आदेयः भवति. अस्तु, इति तृतीयः प्रसङ्गः, दृष्टान्तः अवयव अवयविनोः इति प्रथमप्रसङ्गः यत्र समवायः भवति. गुणगुणिनोः मध्ये इति द्वितीयस्थलं यत्र समवायः भवति. अपि च क्रिया, अपि च क्रियावत् द्रव्यं, तर्हि क्रियाक्रियवतोः समवायः इति आगतम्. सम्यक्, सर्वेषां मनसि स्पष्टता अस्ति वा? अस्तु, बहु सम्यक्. तर्हि श्रीधर् महोदय अग्रे गच्छतु कृपया.
घटाति व्यक्तिः जातिमति, घटात् घटत्वादि जातिः. घटे एव घटत्वं भवति, पृथक् कर्तुं न शक्नोति, अतः संयोः सम्बन्धः नास्ति, समवायः एव अस्ति. घटाति घटत्वादि जाति घटत्वं
घटत्वं पटत्वं गुणत्वं कर्मत्वम् इत्यादयः जातयः जातयः कुत्र वर्तन्ते? घटत्वजातिः कुत्र वर्तते?
घटत्वजातिः घटे एव वर्तते.
हा, इत्येव अत्र अधोभागे किं लिखितमस्ति?
घटाति व्यक्तिः जातिमति.
हा, अत्र व्यक्तिः इत्युक्ते सदस्यः इति चिन्तयतु. घटत्वम् इति एका जातिः अस्ति चेत् प्रत्येकं घटः तस्यां जात्यां एकः सदस्यः अथवा एका व्यक्तिः इति उच्यते. व्यक्तिः इत्युक्ते व्यक्तिगतरूपेण वयं यत्किमपि पश्यामः, व्यक्तिगतरूपेण वयं घटमेव पश्यामः खलु, तद्दृष्ट्वा घटत्वमस्ति तस्मिन् इति जानीमः. तर्हि घटत्वादिजातिः अपि च घटादिव्यक्तिजातिमिति तस्मिन् अस्ति. जातिमति इति कीदृशपदं महोदय?
जातिमति जाति जातिवान्
तदेव मतु प्रत्ययः. जातिः अस्मिन्, जातिः अस्मिन् अस्यां वा अस्य अस्मिन् वा इति. अत्र स्त्रीलिङ्गे जातिमति, यतोहि व्यक्तिः इति स्त्रीलिङ्गपदं, घटादिव्यक्तिः जातिमति. अस्तु, तर्हि हा, तर्हि तयोः मध्ये कीदृशसम्बन्धः?
समवायसम्बन्धः.
इति चतुर्थः प्रसङ्गः समवायस्य. प्रथमम् अवयवावयविनोः, अनन्तरं गुणगुणिनोः, क्रियाक्रियावतोः, अत्र जातिव्यक्त्योः समवायः. अस्तु, पञ्चमस्थलं किमस्ति अग्रे पठतु महोदय.
विशेषाः नित्यद्रव्याणि, विशेषपरमाणु विशेषाः पृथक् कर्तुं न शक्नुमः, अतः समवायसम्बन्धः एव अस्ति.
हा, सम्यक्. अस्तु, तर्हि एषु पञ्चषु स्थलेषु जातिव्यक्त्योः विशेषनित्यद्रव्ययोः अवयवावयविनोः गुणगुणिनोः क्रियाक्रियवतोः समवायः इति भवेत्. कोऽपि प्रश्नः अत्र?
केषु पञ्चस्थलेषु
महोदय, जगन्नाथमहोदय तत्र अन्तिमपरिच्छेदं पठतु, सः सम्बन्धः एव इति.
सः सम्बन्धः एव समवायः. अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः. अस्तु, धन्यवादः. तत्र आश्रयणानाम् आधेयानाञ्च नानात्वेपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते. अस्तु, अनन्ताः यद् यदि सर्वे भिन्नभिन्नद्रव्याणि यत् सन्ति तेषां एकस्मिन् पदार्थ उपयुज्य तेषां सर्वेषु यत् एकविशेषता यद् भवति तस्य समवायः इति उच्यन्ते.
हा, पञ्चषु स्थलेषु समवायः, किन्तु वयं पश्यामः यत् समवायस्थले आश्रयाः भिन्नाः आसन् खलु, कपालाद्यवयवाः, द्रव्याणि क्रिया गुणवन्ति द्रव्याणि, क्रियावन्ति द्रव्याणि, अपि च जातिमतिव्यक्तयः, नित्यद्रव्याणि इति भिन्नभिन्नाः आश्रयाः आसन्, आधेयाः अपि अनेके आधेयाः आसन् किल. तथापि किमुक्तं तत्र चतुर्दशे पुटे पश्यतु, स्थूलाक्षरैः समवायस्तु एकः एव इति उक्तं खलु. समवायः एकः एव स्वीकृतः, किमर्थं? लाघवात् इति, लाघवदृष्ट्या. नैयायिकाः सर्वत्र एकां सङ्ख्यां स्थापयन्ति, द्रव्याणि नवैव, चतुर्विंशतिगुणाः, पञ्चकर्माणि इत्यादिकं वयं दृष्टवन्तः किल, विशेषात् अनन्ता एव. अत्र समवायः एकः एव स्वीकृतः, यतोहि तस्य एकाधिकसङ्ख्यायाः आवश्यकता नास्ति इति. यत्र आवश्यकं तत्रैव एकाधिकं सङ्ख्या भवतु, नो चेत् न, अनेन लाघवमस्ति इति कृत्वा समवायः एकः एव इति. समीचीनम्, अस्तु. इतः अग्रे किञ्चिदेव लाघवगौरवम् इत्यस्य विषये किञ्चित् पठामः. शिवराम महोदय पठितुम् इच्छति वा? समीचीनं, तर्हि पठतु लाघवगौरवम्.
लाघवगौरवस्वरूपं, लाघवं नाम विचारसौकर्यम्. एवं चिन्तयामः, कश्चित् आपणं गन्तुं प्रवृत्तः, तस्य माता तं प्रति अवदत् गुडं तण्डुलाञ्च आहर. सः ओम् इत्युक्त्वा निर्गतः. तदैव तस्य भार्या समागत्याः शर्करां, शाकां, सर्षपान्, विद्युतदीपं, पुस्तिकां, पेटिकाम् इत्यादि अलमलं न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम्, अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत्. तत्र लाघव नाम विचारसौकर्यं, तत्र एकम् उदाहरणं तत्र दत्तमस्ति. कोऽपि आपणं गन्तुम् इच्छति, तस्य माता केवलपदार्थद्वयमेव वदति, प्रथमतया गुडं तथा तण्डुला. किन्तु साक्षात् तत्र आगत्य तस्य भार्या किञ्चित् अन्यपदार्थान् अपि तत्र सा वदति, बहवः पदार्थाः सः तत्र सा वदन्ति. तर्हि सः तत्र उक्तवान् एतावता पदार्थाः अस्ति चेत् सर्वाः पदार्थाः बुद्धौ स्थापयितुम् अहं तावत् मम क्षमता नास्ति. तर्हि ये पदार्थाः भवती आनेतुम् इच्छन्ति तत्सर्वं विलिख्य नाम लिखित्वा देहि, तत् पठित्वा अहम् आनयामि इति.
हा, समीचीनं महोदय. तर्हि अत्र आशयः कः इति चेत्, अधिकसङ्ख्यया अस्माकं बुद्धौ विचारसौकर्यं न भवति, परन्तु यदा सङ्ख्यात्मकदृष्ट्या यत्किमपि किञ्चित् न्यूनमेव भवति चेत् तदा अस्माकं विचारसौकर्यं भवति. विचारसौकर्यमेव लाघवम् इति उच्यते. तदर्थमेव लाघवदृष्ट्या समवायः एकः एव, पृथक् पृथक् स्थलेषु पृथक् पृथक् समवायः इति मास्तु, सङ्ख्यात्मकदृष्ट्या लाघवं भवतु इति कृत्वा समवायः एकः एव इति उक्तम्. अस्तु, लाघवं नाम विचारसौकर्यं, बुद्धौ अथवा मनसि स्थापयितुं यत् सौकर्यं वयम् अनुभवामः तदेव लाघवम् इति उच्यते.
विचारसौकर्यं विशेषविषये न स्वीकरोति, तत्र अनन्ताः सन्ति, तत्र विषये अपि एकमेव स्वीकर्तुं शक्नोति. लाघवं
चिन्तयतु भवान्. अस्तु, द्रव्याणि नव इति उक्तवन्तः, किमर्थं? तत्र कोऽपि विकल्पः एव नास्ति खलु, नवद्रव्याणि अपेक्षितानि एव, एकं पृथिवी भवतु, अपरं जलं भवतु इति कृत्वा. विशेषस्थले अपि तथा, आवश्यकमेव विशेषाः अनन्ताः इति स्वीकार्याः एव यतोहि स्वीकार्यमेव यतोहि विशेषः एकः एव इति चिन्तयतु महोदय तदा सर्वेषु परमाणुषु एकः एव विशेषः इति आगच्छति किल श्रीधर् महोदय
सर्वेषु परमाणुषु समानमेव एलेक्ट्रान् अस्ति ए अस्ति
हा तदर्थमेव तदर्थमेव उक्तवती विशेषः एकः एव इति यदि स्वीक्रियते अस्तु तदा सर्वेषु परमाणुषु एकः एव विशेषः इति आगच्छति खलु तेन अस्माकं चिन्तनं तर्कबद्धं न भवति एकः एव विशेषः सर्वेषु परमाणुषु विद्यते चेत् तर्हि परमाणूनां मध्ये भेदः कथं ज्ञायते न ज्ञायते एव परमाणूनां मध्ये भेदज्ञापनाय तत्र विशेषाः अनन्ताः इति स्वीकरणीयाः भवन्ति
समवाय भेदं कथं भवति घटे घटत्वं भिन्न समवाय भिन्न भवति वर्ण अन्य स्थाने भिन्नः भवति भेदज्ञानं कथं भवति
तत्र अस्माकम् आवश्यकता नास्ति भेदज्ञापनार्थं खलु विशेषस्थले विशेषस्य प्रयोजनं किं प्रथमतया वर्गस्य आरम्भे एव उक्तवान् आण्ड्रे भेदज्ञापनं खलु विशेषस्य तादृशप्रयोजनमस्ति इति कृत्वा पृथक् परमाणुषु भेदज्ञापनाय पृथक् पृथक् विशेषाः स्वीकृताः इति अवश्यं स्वीकार्यमेव भवति किन्तु समवायस्य स्थले तादृशनिर्बन्धः नास्ति खलु यः कोऽपि समवायः यः नित्यरूपेण वर्तते एषु स्थलेषु सः एकः एव भवतु इति
अत्र सर्पः सर्पणक्रिया घट घटत्वम् एकमेव
तयोः मध्ये यः सम्बन्धः अस्ति घटघटत्वम् एकमेव इति न तयोः मध्ये यः सम्बन्धः अस्ति समवायः इति सः समवायः एकः एव इति
तर्हि एकस्य अस्तित्वम् अपरस्य अस्तित्वम् अपि सूचयति इति सम्बन्धः समवायः
हा इति अपि वक्तुं शक्यते भगिनि समीचीनमेव इत्युक्ते गुणवत् द्रव्यम् इति वदामश्चेत् तस्मिन् गुणः भवेत् एव समवायेन इति अपि च स्थायि नित्यरूपेण भवति यावत्पर्यन्तं द्रव्यमस्ति तावत्पर्यन्तं द्रव्यस्य गुणः भवति तत्र समवायः भवति एव नित्यरूपेण परन्तु संयोगविषये किञ्चित् चिन्तनं कुर्वन्तु संयोगविषये किं जातं तत्र एकवारं संयोगः आसीत् अपरवारं संयोगः न आसीत् पुनः एकवारं यदा हस्तौ संयुक्तौ भवतः तत्र नूतनसंयोगः सिध्यति खलु किन्तु समवायः तथा नास्ति स्थायिरूपेण तिष्ठति यत्र कुत्रापि भवति इति बुद्धं श्रीधर् महोदय अस्तु इतः अग्रे तर्हि अस्तु ज्योति भगिनी अन्यः कोऽपि पठितुम् इच्छति वा अद्य बहवः जनाः शृण्वन्ति इत्येव उक्तवन्तः रघुपतिमहोदय पठितुम् इच्छति मेहुलमहोदय
आं महोदय अहं वक्तुमिच्छामि
अस्तु पठितुमिच्छति चेत् पठतु अस्तु अग्रे
अत्र पश्यतु पूर्वं मात्रा द्वयमेवोक्तं तदा अङ्गीकृत्य प्रवृत्तः तदा हरणाय ततः भार्यया पञ्चशाः पदार्थाः उक्ताः तदा निर्वाय भाषणात् विलिख्य देहिति वक्ति को हेतुः विचारे धारणे वा सौकर्यम् द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति अनेकेषां स्थापने भवति इदमेव विचारसौकर्यं राघवम् इत्युच्यते तद्विपरीतम् असौकर्यं गौरम् इत्युच्यते तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरम् गौरवम् इति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते पूर्व अत्र पश्यतु पूर्वं मात्रा द्वयमेवोक्तं तदा अङ्गीकृत्य प्रवृत्तः तदा हरणाय पूर्वं तस्य एकस्मिन् पुरुषस्य मातुः तस्य द्वयोः वस्तुम् आनेतुम् अवदत्, अतः सः प्रवृत्तः जातः. परन्तु अनन्तरं तस्य भार्याया अनेकान् अत्र अस्मिन् उदाहरणे पञ्चशः पदार्थाः आनेतुं वदामि वदति. अतः सः सर्वेषां वस्तूनां बुद्धं न स्थापितुं शक्नोति. अतः सः सर्वं विलिख्यं एकस्मिन् पत्रे लिखितम् अस्ति. अनन्तरं परन्तु तस्य हेतुः का, तस्य हेतुः विचारसौकार्यम् इति अस्ति. द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति. इत्युक्ते यदि द्वयोः अथवा त्रीणि वस्तूनि अस्ति तत्र अस्मिन् बुद्धे स्थापनं कर्तुं शक्नोति, तत्र किञ्चित् क्लेशः न भवति. परन्तु यदि बहुषु वस्तूनाम् अस्ति तर्हि बुद्धौ स्थापने क्लेशः भवति. अतः विचारसौकर्यार्थं सः एकं पत्रे सर्ववस्तूनां लिखितम् अस्ति. तथापि अत्र लाघवम् इति विचारसौकर्यार्थं लाघवम् इति आगच्छति. अथ तद्विपरीतम् असौकर्यं गौरवम् इत्युच्यते. तद्विपरीत यदि यदि लाघवं नास्ति गौरवम् अस्ति तत्र असौकर्यमस्ति. लाघवम् अस्ति चेत् सौकर्यमस्ति, गौरवम् अस्ति चेत् असौकर्यमस्ति.
हा, इत्युक्ते किञ्चित् भिन्नरीत्या सौकर्यमस्ति चेत् लाघवम्, असौकर्यमस्ति चेत् गौरवं. बुद्धौ स्थापयितुं सौकर्यम् इत्येव विचारसौकर्यम् अस्तु. तया एव दृष्ट्या समवायः एकः एव स्वीकृतः. हा अस्तु, इति अग्रे अस्ति महोदय, अग्रिमवाक्यद्वयं प्रतिपादयतु.
आम् आम्, तथा च आश्रयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि इति, इत्युक्ते अधेय अपि च आश्र अनेक वस्तूनाम् अपि अधेय अपि आश्रय अपि अस्ति. अतः समवाय इति एकस्मिन् लाघव विचारसौकर्याय लाघवम् इति स्वीकृत्य तस्य नाम समवाय इति अस्ति. अथवा समवायः इति एकः एकस्मिन् एव नामकरणम् अत्र अङ्गीकृत्यमस्ति विचारसौकर्याय
इति एव वार्ता. यतोहि समवायस्थले पश्यतु आश्रयाः भिन्नाः खलु, कपालादि अवयवाः, गुणवत् द्रव्याणि इति बहवः आश्रयाः आसन्. तथापि आश्रयाणां च आधेयानाम् अनेकत्वे अपि, इत्युक्ते यद्यपि तथापि, यद्यपि आश्रयाः आधेयाः अनेकाः तथापि समवायः तस्य अनेकत्व स्वीकारे गौरवमस्ति. अनेकाः समवायाः इति स्वीकुर्मश्चेत् तत्र गौरवमस्ति, विना कारणं गौरवं तद् न आवश्यकम् इति कृत्वा लाघवदृष्ट्या एकः एव समवायः इति आगच्छति. अस्तु, इतः अग्रे अभावनिरूपणम् अग्रिमसप्ताहे कुर्मः. तर्हि एतावत्पर्यन्तं षड्भावपदार्थाः द्रव्यगुणकर्मसामान्यविशेषः समवायः इति षड्भावपदार्थाः अस्माभिः परिशीलिताः. अग्रिमसप्ताहे अभावः इति पदार्थः आगच्छति. एतावता कोऽपि प्रश्नः वा कस्यचित्?
पञ्चपदार्थाः सम्यक्, पञ्चशाः अर्थः कः?
पञ्च षड्, षड् पञ्च वा षड् इति, द्वित्राः इति वदामः खलु महोदय, द्वे अथवा त्रीणि द्वित्राः, तद्वत् पञ्चशाः इत्युक्ते पञ्च अथवा षड् पदार्थाः. अस्तु अहं पुनः वदामि
क्षम्यतां भगिनि एकनिमिषं समवायसम्बन्धाः किञ्चित् अयुतसिद्धसम्बन्धाः इति कुत्रचित् अहं पठितवान्
तद् अग्रे आगच्छति महोदय अवश्यम् आगच्छति तदा पश्यामः अस्तु इति इत्युक्ते महोदय स्थूलरीत्या वदामि अयुतसिद्ध इत्युक्ते पृथक्तया यस्य सिद्धिः न भवति यथा द्रव्यम् अपि च गुणः पृथक्तया न सिद्धौ भवतः खलु यत्र द्रव्यं यदा द्रव्यं जायते तत्र गुणः अपि आगच्छति तादृशयोः मध्ये एव समवायः युतसिद्धौ इत्युक्ते पृथक्तया सिद्धौ द्रव्यं च गुणः तथा नास्ति खलु यत्र द्रव्यं तत्र यत्र क्रियावत् द्रव्यं तत्र क्रिया तद्भवेदेव घटः अस्ति चेत् तन्मध्ये कपालः भवेदेव इति अस्तु पुनः प्रार्थयामि यद् वारं वारं किञ्चित् पुस्तकं पठतु यतोहि भाषा किञ्चित् क्लिष्टकरा अस्ति अस्तु तर्हि यावत् अधिकं पठामः तर्हि तदा सारल्यं भवति वर्गे अपि अस्तु अभ्यासः अपि भवति तेन पदानां परिचयः इत्यादिकं भवेत् अस्तु कोऽपि प्रश्नः वा अस्तु तर्हि धन्यवादः
धन्यवादः.